यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनम् तदर्थं कर्म कौन्तेय मुक्तसङ्गसमाचरा अन्नात् भवन्ति भूतानि पर्जन्यात् अन्नसंभवा यज्ञात् भवति पर्जन्यो यज्ञ कर्म समुद्भवा यद्यदाचरति श्रेष्ठा तत्तदेवेतरो जना स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते प्रकृते क्रियमाणानि गुणे कर्माणि सर्वशा अहंकार विमूढात्मा कर्ताहं इति मन्यते काम एष क्रोध एष रजो गुण समुद्भवा महासनो महापाप्मा विद्येनं इह वैरुणम्